यथामदोसाम् वरदोसाममिन्द्राभिवस्वताम् नीपादिथो मघवन्मेध्यादिथो पुष्टिगौ सृष्टिगौ स च पार्षद्वाणः प्रस्कण्डम् समसादयच्छयानम् जिव्रिमुद्धिताम् सहस्राण्यशिषा सद्गवामृषस्त्वदस्य वेवृकाः य उक्थेभर्न बिन्धते चिकित्यर्षिचोदनः इन्द्रन्तमच्छावदनव्यस्यापत्यरिष्यन्दन्न भोजसे यस्मा अर्कम् सप्तशेर्षाणमानृजस्त्रिधातुमत्तमे पदे सत्त्वे इमा विश्वा भुवनानि चिक्रददादिज्जनिष्टपांस्यम् यो नो दातावसो नामिन्द्रन्तम् होमहे भजम् विद्माह्यस्य सुमतिन्नबीजसेयम् गवेमगोमजौ रजे यस्मै त्वम् वसो दानादशिक्षसि स राजस्पोषमष्टुते तन्त्वा भजम् मघवन्निन्द्रगिरवणः सुदावन्दोहवामहे कदाचन स्तरेरसिनेन्द्रसश्चसि दाशुषे उपोपेन्न मघवन् भोज इन्नु देदानम् देवस्य पृच्छते प्रजोननक्षे अभ्योजसा कृमिम् बधैः सुष्टम् निघोषयन् यदेतस्तम् भेत्प्रथयन् नमोऽन्दिपमादित्यनिष्टपार्थिवः यस्याजम् विश्व आर्यो दासश्येवधिपा अरिः तिरश्चिदरिजेरुषमेपवीरविदुभ्येत्सो अद्यते रजिः तुरण्यवोमधवन्दम् घृतश्चुतम् विप्रासो अर्कमानुजः अस्मे रजः पप्रथे मृष्ट्यम् शवोऽस्मे सुवानास इन्दवः